नान त्वां गणपति गुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन् नोतिभिः सीत प्रणो देवी सरस्वती वाचेभिर्वाजिरीवती धीनाम विद्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवा शरव्या यातवतया नो रुद्रमृडया या ते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशम् तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छा वदामसि यता नः सर्वमिच्छगत यक्ष्वगुम् सुमना असत् अध्यवोच ददि वक्ता प्रथमो दैव्योऽभिषक् अहिगश्च सर्वाञ्जम्बयन् सर्वान् स यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेर इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुपयोरात्नियोच्याम् याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुका शिवो नः सुमनाभव विज्यम् धनुः कपट्टिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्वया परिभुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुदधे नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ण्यबाहवे सेनान्ये दिशाम् च पतये नमो
नमो
वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः
स्वस्ते जराय त्वशेवते पतीनाम्
पतये नमो नमो बब्लुषाय विव्याधिने नानाम्
पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायाततावीने क्षेत्राणाम्
पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम्
पतये नमो नमो मकरणे
वाणिजाय कक्षाणाम्
पतये नमो नमो भुवन्त्रये वारिवस्कृतायौषधीनाम्
पतये नमो नम उच्चैर्घोषाय
क्रन्दयते पथीनाम्
पतये नमो नम
कृत्सवीताय धावते सत्त्वनाम्
पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम्
पतये
नमो नमः ककुभाय निषङ्गिणे सेनानाम्
पतये
नमो नमो निषङ्गिण इषुधिमते
तस्कराणाम्
पतये नमो नमो वञ्चते परिवञ्चते स्थायोनाम्
पतये
नमो नमो निचेरवे परिचरायारण्यानाम्
पतये
नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णताम्
पतये
नमो नमो सिमद्भ्यो नक्तम् चरद्भ्य
प्रकृन्तानाम्
पतये नमो नम उष्णेशिने गिरिचराय कुलुञ्चानाम्
पतये
नमो नम इषुमद्भ्यो धन्वाविभ्यश्च
वो नमो
नम आतन्वानेभ्य
प्रतिदधानेभ्यश्च
वो नमो
नम
आयच्छद्भ्यो विसृजभ्यश्च
वो
नमो
नमोऽस्यद्भ्यो
विद्यभ्यश्च
वो नमो
नम
आसीनेभ्य
शयानेभ्यश्च
वो नमो
नम
स्वपद्भ्यो
जाग्रभ्यश्च
वो
नमो
नमस्तिष्ठद्भ्यो
दावद्भ्यश्च
वो नमो
नमः
सभाभ्य
सभापतिभ्यश्च
वो नमो
नमो
अश्वेभ्योऽश्वपतिभ्यश्च
वो
नमः
नम
आव्याधिनीभ्यो
विविद्यन्तेभ्यश्च
वो नमो
नम
उगणाभ्यस्त्रिगुम्
हरेभ्यश्च
वो नमो
नमो
गृत्सेभ्यो
गृत्सपतिभ्यश्च
वो नमो
नमो
व्रातेभ्यो
व्रातपतिभ्यश्च
वो नमो
नमो
गणेभ्यो
गणपतिभ्यश्च
वो
नमो
नमो
विरूपेभ्यो
विश्वरूपेभ्यश्च
वो
नमो
नमो
महद्भ्यः
क्षुल्लकेभ्यश्च
वो नमो
नमो
रतिभ्यो
रतेभ्यश्च
वो नमो
नमो
रथेभ्यो
रथपदेभ्यश्च
वो
नमो
नमः
सेनाभ्यसेनानिभ्यश्च
वो
नमो
नमः
क्षत्रभ्यः
सङ्ग्रहेतृभ्यश्च
वो
नमो
नमस्तक्षद्भ्यो
रथकारेभ्यश्च
वो
नमो
नमः
कुलालेभ्य
कर्मारेभ्यश्च
वो
नमो
नमः
पुञ्जिष्टेभ्यो
निषादेभ्यश्च
वो
नमो
नम
इषुकृद्भ्यो
धन्वकृद्भ्यश्च
वो
नमो
नमो
मृगयोभ्यश्वनेभ्यश्च
वो
नमो
नम
श्वभ्यश्वपदेभ्यश्च
वो
नमः
नमो
भवाय च
रुद्राय च
नमः
शर्वाय
च पशुपतये
च नमो
नीलग्रीवाय
च
शितिकण्ठाय
च नमः
कपर्दिने
च व्युक्तकेशाय
च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्ठाय च नमो मीढुष्ठमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय चापगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरोतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णे श्रवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः शष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः
ಊರ್ವ್ಯಾಯ ಚ ಸೂರ್ಮ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶಗ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾಣಾಯ ಚಾಭಿಘ್ನತೇ ಚ ನಮಃ ಆಖ್ಯದತೇ ಚ ಪ್ರಖ್ಯದತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆಮೀವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸಸ್ಪದೇ ದರಿದ್ರನ್ನೀಲಲೋಹಿತಾ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾ ರೋಮೋ ಯೇಷಾಂ ಕಿಂಚನ ಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವ ತನೋ ಶಿವ ವಿಶ್ವಾಹ ಭೇಷಜೀ ಶಿವ ರುದ್ರಸ್ಯ ಭೇಷಜೀ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಸದ್ವಿಪದೇ ಚ ದುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನ ನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃಧಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಚಯೋಶ್ಚ ಮನುರಾಯಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತ ಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋವದೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಾಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಶುರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರ ಭಾಮಿತೋ ವಧೀರ್ ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತ್ತೇ ಗೋಗ್ನ ಉತ ಪೋರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತೋ ರಕ್ಷಾ ಚ ನೋ ಅಧಿ ಚ ದೇವ ರೋಹ್ಯಧಾ ಚ ನ ಶರ್ಮ ಯಚ್ಚ ವಿವರ್ಹಾ ಸುಹಿಶ್ರುತಂ ಗರ್ತ ಸ ದಂಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ನು ಮುಗ್ರಂ ಮೃಡಾ ಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ವೃಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಘಾಯೋ ಅವಸ್ಥಿರಾ ಮಗವದ್ಭ್ಯಸ್ತನುಷ್ವಮೀಢಸ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀಢುಷ್ಟಮಶಿವತಮಶಿವೋ ನ ಸುಮನಾ ಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ತಿಂ ವಸಾನ ಆಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೇ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಧಾ ಬಾಹುಗೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವಃ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾಂ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋ ಜನೇ ವದನ್ವಾನಿ ದನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೇ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶ್ರಿತಿಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶ್ರಿತಿಕಂಠಾದಿವಗುಂ ರುದ್ರಾ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಪಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸ ಕಪರ್ದಿನಃ ಯೇ ಅನ್ನೇಷು ವಿವಿದ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ್ ಯೇ ಪದಾಂ ಪದಿ ರಕ್ಷಯ ಐಲಭೃದಾಯ ವ್ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಶೃಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿದಸ್ಥಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋ ಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇ ಏಂತರಿಕ್ಷೇ ದಿವ್ಯೆ ಶಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷಭಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೀರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರದೇಶೇರ್ದಶೋ ದೇಶೇರ್ದಶೋದ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೇ ನೋ ಮೃಡಯಂತು ದೇಯಂ ಭೀಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿತಂ ಭೋಜಂ ಭೇದಧಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ವಂದನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೀಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನೌ ಯೋ ಅಪ್ಸುಯ ಔಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾಭಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋರ್ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇನಾಪ್ಯಾಯ ಸ್ವಾ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮುಷ್ಟು ಯಸ್ವಿಷಸ್ಸುಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ದೇವಮಸುರಂ ದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷಜೋ ಯಗುಂ ಶಿವಾಭಿಮರ್ಶನಃ ಶಾಂತಿ 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 ಓಂ ಅಗ್ನಾ ವಿಷ್ಣು ಸಜೋಷ ಸೇಮಾ ವರ್ಧಂತು ವಾಂಗಿರಃ ದ್ಯುಮ್ನೈರ್ವಾಜೇಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿದಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಅಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾಧೀತಂ ಚ ಮೇ ವಾಕ್ ಚ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮ ಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮ ಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮ ಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇಂಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಷಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜ್ಯೇಷ್ಠಂ ಚ ಮಾಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇಂಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ವರಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವರ್ಷ್ಮಾ ಚ ಮೇ ದ್ರಾಗುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ತ್ವಿಶಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾಣಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪಥಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸೇರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ऊर्क्ष मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृशिश्च मे वृष्टिश्च मे जयेत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेनम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेणवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुदश्च म ओषधयश्च मे कृष्टपच्चम् च मे कृष्टपच्चम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेधाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रा वरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्यो जनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ म आधवनीयश्च म आग्नेद्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे ववृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौही च मे पष्ठवाच्च मे पष्ठौही च म उक्षा च मे वशा च मऋषभश्च मे वेहम् च मे नड्वाम् च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रैयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चाभिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानि सगुंसि यद्विश्वे देवासोक्तवाच पृथिविमातर्मामाहिगुंसीर्मधुवनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वाग्निमे हन्मि कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषा गुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्मसि ॐ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णे विश्रुणुयाम देवाः భద్రం పశ్యే భాక్షభిర్యజత్రాః స్థిరైరంగైస్తుష్టు వాగుంసస్తనోభిః వ్యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తార్క్షో అనిష్టనేమిః స్వస్తి నో బృహస్పతిర్దదాతు. ఓం శాంతి శాంతి శాంతి. అత సూర్యాథర్వాంగిరసం వ్యాఖ్యాస్యామః బ్రహ్మా ఋషిః గాయత్రీ ఛందః ఆదిత్యో దేవతా హంస సోహమగ్నినారాయణ యుక్తం బీజం ఋల్లేఖా శక్తిః వియదాది సర్గ సంయుక్తం కీలకం చతుర్విధ పురుషార్థ సిద్ధ్యర్థే వినియోగః షట్స్వరారూఢేన బీజేన షడంగం రక్తాంబుజ సంస్థితం సప్తాశ్వరథినం హిరణ్యవర్ణం చతుర్భుజం పద్మద్వయాభయవరదహస్తం కాలచక్ర ప్రణేతారం శ్రీసూర్యనారాయణం యేవం వేద స వై బ్రాహ్మణః. ఓం భూర్భువః సువః తత్సవితుర్వరేణ్యం భర్గో దేవస్య ధీమహి ధియో యో న ప్రచోదయాత్. సూర్య ఆత్మా జగతస్థస్తుషశ్చ సూర్యాద్వై ఖల్విమాని భూతాని జాయంతే. సూర్యాద్యజ్ఞ పర్జన్యో నమాత్మా నమస్తే ఆదిత్యా త్వమేవ ప్రత్యక్షం కర్మ కర్తాసి త్వమేవ ప్రత్యక్షం బ్రహ్మాసి త్వమేవ ప్రత్యక్షం విష్ణురసి త్వమేవ ప్రత్యక్షం రుద్రోసి త్వమేవ ప్రత్యక్షం ఋగసి త్వమేవ ప్రత్యక్షం యజురసి త్వమేవ ప్రత్యక్షం సామాసి త్వమేవ ప్రత్యక్షమథర్వాసి త్వమేవ సర్వం ఛందోసి. ఆదిత్యాద్వాయుర్జాయతే ఆదిత్యాద్భూమిర్జాయతే ఆదిత్యాదాపో జాయంతే ఆదిత్యాజ్యోతిర్జాయతే ఆదిత్యాద్వ్యోమదిశో జాయంతే ఆదిత్యాద్దేవా జాయంతే ఆదిత్యాద్వేదా జాయంతే ఆదిత్యో వా ఏష ఏతం మండలం తపతి అసావాదిత్యో బ్రహ్మా. ఆదిత్యోంతఃకరణమనోబుద్ధిచిత్తాహంకారా ఆదిత్యో వై వ్యానస్తమానో దానోపాన ప్రాణః. ఆదిత్యో వై శ్రోత్రత్వక్చక్షురసనఘ్రాణాః. ఆదిత్యో వై వాక్పాణిపాదపాయూపస్థాః. ఆదిత్యో వై శబ్దస్పర్శరూపరసగంధాః. ఆదిత్యో వై వచనాదానాగమనవిసర్గానందాః. ఆనందమయో విజ్ఞానమయో విజ్ఞానఘన ఆదిత్యః. నమో మిత్రాయ భానవే మృత్యోర్మా పాహి వ్రాజిష్ణవే విశ్వహేతవే నమః. సూర్యాద్భవంతి భూతాని సూర్యేణ పాలితాని తు సూర్యే లయం ప్రాప్నువంతి యః సూర్యః సోహమేవ చ. చక్షుర్నో దేవః సవితా చక్షుర్న ఉత పర్వతః చక్షుర్ధాతా దధాతునః. ఆదిత్యాయ విద్మహే సహస్రకిరణాయ ధీమహి తన్నః సూర్య ప్రచోదయాత్. सविता पुरस्तात् सविता पश्चात्तात् सवितोत्तरातात् सविता धरातात् सविता नः सुवतु सर्वतातिगुं सविता नो रासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्मा गृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यः सदा हरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मीर्नश्यति अभक्षभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याह्ने सूर्याभिमुखः पठेत् सद्योत्पन्नपञ्चमहापातकात् प्रमुच्यते सैषा सावित्री विद्या न किञ्चिदपि न कस्मैचित् प्रसंशयेत् य एताम् महाभाग प्रातः पठति स भाग्यवान् जायते पशून् विन्दते वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेदा इत्युपनिषत् भद्रम् कर्णे विशृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनूभिः व्यशेम देवहितै यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवे वचक्षुरातम् तद्विप्रासो विपन्यभोजाग्रहागुम् सत्समिन्धते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः